ओर्धानं दिवो अरतिं प्रथिव्यापै ईश्वानरमृत आजातमग्निम् कविं सम्राजमतिथिञ्जनानामासन्नापात्रम् जनयन्त देवाः नाभी यज्ञानाम् सदनम् रजेणाम् महामाहापमभिसन्नवन्त वैश्वानरम् रथ्यमद्धराणाम् यज्ञस्य केतुम् जनयन्त देवाः त्वद्विप्रो जायते भाज्यज्ञे त्वद्वीरासो अभिमातिशाः वैश्वानरत्वमस्मासु देहि वसो निराजन् स्पृहजायाणि त्वाम् विश्वे अमृतजायमानम् शिशुन्न देवा अभिसन्नवन्ते तमक्रतुभिरमृतत्वमा जन्वैश्वानरजत्पित्रोरदीदेः वैश्वानरतमतानि व्रतानि महाञ्जग्नेन किरातधर्षा यज्जायमानः पित्रोरुपस्थे विन्दः केतुम् भजुरेष्वह्ना वैश्वानरस्य पिमितानि चक्षसासानो निदिवो अमृतस्य केतुना तस्येदु विश्वाभुवनाधिमोर्धनि भजा इवरुरुहः सप्त विसृहाः वियोरजांस्य पिमेत शुक्रतुर्वैश्वानरो विदिवो रोचना कविः परिजो विश्वाभुवनानि पप्रथे दब्धो गोपा अमृतस्य रक्षिता